प्रथमं शेखरं विन्द्यात् द्वितीयं दाशरथ्यकम् प्रथमं शेखरं विन्द्यात् द्वितीयं दाशरथ्यकम् तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् पञ्चमं लोकपूज्यं च षष्ठकं जानकी प्रियं पञ्चमं लोकपूज्यं च षष्ठकं जानकी प्रियं सप्तमं वासुदेवं च राघवेन्द्रं तथाष्टमं सप्तमं वासुदेवं च राघवेन्द्रं तथाष्टमम् नवमं पुण्डरीकाक्षं दशमं लक्ष्मणाग्रजं नवमं पुण्डरीकाक्षं दशमं लक्ष्मणाग्रजं एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् दशनामानि त्रिकाले यः पठेन्नरः एतद्वादशनामानि त्रिकाले यः पठेन्नरः दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिमान् दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिमान् जनवश्यम् सर्वकार्यफलं लभेत् जनवश्यं राजवश्यं सर्वकार्यफलं लभेत् अर्धरात्रे जपे नित्य